इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः गणेश हेगडे। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्रमोदी उक्तवान् यद् भारतं सेमिकण्डक्टर् क्षेत्रे तीव्रगत्या प्रगतिं करोति अथ च स्वस्य डिजिटल् भविष्याय शक्तिं प्रदातुं वैश्विकनवाचारञ्च चालयितुं सुदृढपारिस्थितिकीतन्त्रस्य निर्माणं कुर्वन्नस्ति। एकस्मिन् सोशल मीडिया सन्देशे श्रीमोदी प्रावोचत् यद् आन्ध्रप्रदेश ओडिशा पंजाब राज्येषु सेमीकण्डक्टर परियोजनायाः अनुमोदनसम्बद्धः केन्द्रीय मन्त्रिमण्डलस्य निर्णयः विनिर्माणक्षमतां वर्धयिष्यति, उच्च कुशल उद्योग अवसराणां सृजनञ्च करिष्यति, भारतञ्च वैश्विक आपूर्तिश्रृङ्खलायां प्रमुखनिर्वाहकरूपेण स्थापयिष्यति। केन्द्रीय मन्त्रिमण्डलेन ह्यः एव ओडिशा पंजाब आन्ध्रप्रदेशेषु चतस्रः नूतनाः सेमीकण्डक्टर परियोजनाः अनुमोदिताः, यस्य अनुमानितव्ययः प्रायः सार्धचतुःसहस्रकोटिरूप्यकाणां भविष्यति। सूचनाप्रसारणमन्त्री श्री अश्विनी वैष्णवः अवदत् यत् प्रधानमन्त्रिणः श्रीनरेन्द्रमोदिनः आध्यक्ष्ये मन्त्रिमण्डलेन अयं निर्णयः स्वीकृतः।
आज चार सेमीकंडक्टर प्रोजेक्ट्स अप्रूव हुए हैं, दो ओडिशा में, एक पंजाब में और एक आंध्र। 4,594 करोड़ रुपीस के इन्वेस्टमेंट से 2022 में जब सेमीकंडक्टर मिशन लॉन्च हुआ, माननीय प्रधानमंत्री जी का दूरदर्शी नेतृत्व है जिसके तहत उन्होंने एक लॉन्ग टर्म स्ट्रेटजी के तहत काम चालू किया और कंप्लीट इकोसिस्टम पे ध्यान देने का प्रधानमंत्री जी का हमेशा मार्गदर्शन रहा। तो अब कंप्लीट इकोसिस्टम डिजाइन, वेफर, वेफर फैब्रिकेशन, पैकेजिंग, मैन्युफैक्चरिंग ऑफ कंपोनेंट्स, असेंबली, टेस्टिंग, फाइनल प्रोडक्शन, हर चीज पे, इलेक्ट्रॉनिक्स के हर सेक्टर पे, हर डायमेंशन पे काम चल रहा है।
श्री अश्विनी वैष्णव अवदत् यत् केन्द्र सर्वकारेण उत्तरप्रदेशस्य लखनऊ मेट्रो बी प्रथमचरणस्यापि अनुमोदनं कृतम्, यस्य अनुमानितव्ययः 1,85,000 कोटिरूप्यकाणि अस्ति। सः उक्तवान् यत् अस्मिन् मेट्रो रेल मार्गे 12 स्थानकानि निर्मास्यन्ते अथ एषा परियोजना अग्रिमपञ्चवर्षेषु परिपूर्णतां यास्यति। श्री वैष्णवः उक्तवान् यत् 700 मेगावाट् क्षमतायाः द्वितीय तातो जल विद्युत् परियोजनायाः कृतेपि सर्वकारेण स्वस्वीकृतिः प्रदत्ता। गृहमन्त्रालयेन ओवरसीज सिटिजन्स ऑफ इंडिया इति भारतीय प्रवासी नागरिकाणां शासनस्य मानदण्डाः कठिनाः कृताः। मन्त्रालयेन उक्तं यत् यदि कश्चन व्यक्तिः वर्षद्वयं तदधिकं वा कारावासस्य दण्डं प्राप्नोति अथवा 7 वर्षेभ्यः अधिकं वा कारावासस्य दण्डनीयस्य अपराधस्य आरोपपत्रं प्राप्नोति तर्हि ओसीआई पञ्जीकरणपत्रस्य अपावर्तनं भवितुं शक्यते। विदेशीय प्रबल परिस्पन्दस्य मध्येपि व्यापारसन्धिषु सर्वकारस्य साहसिक निर्णयस्य कृते देशस्य कृषकाः प्रधानमन्त्रिणे श्रीनरेन्द्रमोदिने धन्यवादं दत्तवन्तः। कृषकाणां विशालः समूहः, कृषक संघटनस्य नेतारः च ह्यः नवदिल्लीनगरे केन्द्रीय कृषि कृषक कल्याण मन्त्रिणा शिवराज सिंह चौहान महोदयेन सह मिलित्वा कृषकहितस्य रक्षणार्थं सर्वकारस्य निर्णायक कार्याणां कृते कृतज्ञतां समर्थनञ्च प्रकटितवन्तः। इंडिया सिंगापुर मिनिस्ट्रियल राउंड टेबल इत्यस्य तृतीय परिक्रमस्य गोलोत्पीठिका संगोष्ठी अद्य नवदिल्ली नगरे भविष्यति। अस्यां संगोष्ठ्यां केन्द्रीय मन्त्रिणः डॉ एस जयशंकरः, निर्मला सीतारामनवर्या, श्री अश्विनी वैष्णवः, श्री पीयूष गोयलः च उपस्थिताः भविष्यन्ति। विदेश मन्त्रालयेन एकस्मिन् वक्तव्ये सूचितं यत् सिंगापुरस्य उपप्रधानमन्त्री गान किम योंगः अपि अस्मिन् सत्रे भागं गृहीष्यति। चीनदेशस्य चेंगडू इत्यत्र विश्वक्रीडासु वुशु क्रीडायां भारतस्य नम्रता बात्रा इत्यनया क्रीडिकया प्रथमवारं पदकं प्राप्य इतिहासः विनिर्मितः। अवधेयं यत् नम्रता बात्रा अस्याः क्रीडायाः अन्तिमचक्रे रजतपदकं प्राप्तवती। इति वार्ताः।